नन्दिकेश्वर उवाच पुरा कदाचिद्योगीन्द्र विष्णुर्विषधरासनः सुश्वापरया भूत्या स्वानुगैरपि संवृतः यदृच्छया गतस्तत्र ब्रह्मा ब्रह्मविदाम्बरः अपृच्छत् पुण्डरीकाक्षं शयानं सर्वसुन्दरं कस्त्वं पुरुषवच्छेषे दृष्ट्वा मामपि दृष्टवत् उत्तिष्ठवत्स मां पश्य तव नाथमिहागतम् आगतं गुरुमाराध्यं दृष्ट्वा यो दत्तवच्चरे द्रोहेण तस्य मूढस्य प्रायश्चित्तं विधीयते इति श्रुत्वा वचः क्रुद्धो बहिःशान्तवदाचरन् स्वस्ति ते स्वागतं वत्स तिष्ठ पीठमितो विश किमु ते व्यग्रवद्वक्रं विभाति विषमेक्षणम् ब्रह्मोवाच वत्स विष्णो महामानमागतं कालवेगतः पितामहश्च जगतः पाता च तव वत्सका विष्णुर्वाच मत्स्यं जगादनं वत्स मनुषे त्वं हि चोरवत् मन्नाभिकमला जाता पुत्रस्त्वं भाषसे वृथा नन्दिकेश्वर उवाच एवं विनिवदस्तोत्र मुग्धयो रजयोस्तदा अहमेव वरो न त्वमहं प्रभुरहं प्रभु परस्परं हन्तु कामौ चक्रदुःसमरोद्यमम् युरिदाते मरौ वीरौ हंसपक्षीन्द्रवाहनौ वैरं च वैष्णवाश्चैवं मितो युयुधे तदा तावद्विमानगतया सर्वा वै देवयातयः दीर्घक्षवसमाजगमुः समरन्तं महाद्भुतं क्षिपतं पुष्पवर्षाणि पश्यन्तस्वैरमम्बरे सुवर्णवाहनस्तत्र क्रुद्धो वै ब्रह्मवक्षसि मुमोच बाणान् सहस्रां सविधान् बहून् मुमोचातमदे क्रुद्धो विष्णोरुलसिरस्सहान् बाणानलसङ्काशानस्त्रांश बहुशा तदा तदाश्चर्यमिति स्पष्टं तयोः समरगोचरम् समीक्ष्य देवताना शशंसुरवृषमाकुलाः ततो विष्णुस्य संकृद्धः स्वसनदर्शितः माहेश्वरास्त्रमदितिमान् सन्दधे ब्रह्मणोपरि ततो ब्रह्मा वृषं क्रुद्धा कम्पयन् विश्वमेव हि अस्त्रं पाशुपतं घोरं सन्दधे विष्णुवक्षसि ततस्तदुत्थितं व्योम्नि तपनायुधसन्निभम् सहस्रमुखमत्युग्रं चण्डवातभयङ्करम् अस्त्रद्वयमिदं तत्र ब्रह्मविष्णोर्भयङ्करम् इत्थं बभूव समरं ब्रह्मविष्णो परस्परं ततो देवगणाः सर्वे विषण्णा वृषमाकुलाः ऊचु परस्परं तात राजक्षोभे यथा द्विजाः सृष्टिस्थितिश्च संहारस्थितो भावोऽप्यनुग्रह यस्मात् प्रवर्तते तस्मै ब्रह्मणे च त्रिशूलिने अशक्यमन्यैर्यदनुग्रहं विना तृणक्षयोऽप्यत्रयदृच्छया क्वचित् इति देवाभयं कृत्वा विचिन्वन्ताशिवक्षयम् यज्ञं कैलासशिखरं यत्रास्ते चन्द्रशेखरः दृष्टा परं तत्पारमेश्वरं प्रणेमु प्रणवाकारं प्रविष्टास्तत्र समीरि तेऽपि तत्र सभा मध्ये मण्डपे मणिविष्टरे विराजमानमुमया दृशुर्देव पुङ्गवं सव्योत्तरे तर्वनं तदर्पितकराम्बुजं स्वगणैः सर्वतो जुष्टं सर्वलक्षणलक्षितं वीज्यमानं विशेषज्ञैः स्त्रीजनैः तीव्रभावनैः शंस्यमानं सदा वेदैरनुगृह्यन्तमीश्वरम् दृष्ट्वैवमीशमरा सन्तोषस्य विलेक्षणाः दण्डवद्दूरतो वत्स नमश्चक्रुर्महागणाः तानवेक्षपतिर्देवान् समीपे चाह्वयत्रणैः अथ संरादयन् देवान् देवो देवशिखामणिः अवोचत गम्भीरं वचनं मधुमङ्गलम् ॐ